वागर्भाविरसम्प्रक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॐ येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्युषा वहै ॐ शान्ति शान्ति शान्तिः हरिः ॐ वर्पण
धन्यवादः पापाजी उत्तमम् अस्तु अस्माकं प्रवर्तमानविषये कोऽपि वक्तुमिच्छति वा सुधा भगिनी अस्माकं विषयः कः किञ्चित् वदतु गतवर्गे वयं किं कृतवन्तः किञ्चित् प्रयत्नं करोतु भगिनी वदतु
आं भगिनी गतसप्ताहे अहं तृतीयाविभक्ति प्रयोगम् इति कृतवन्तः सः इति उपपदविभक्ति अपि कथं तृतीयाविभक्ति योजयित्वा करणीयम् इति पठितवन्तः
अस्तु उत्तमं सः अपि सः हकारयोजनेन भेदः कः दीप्षिका भगिनी सः विसर्गत्वे विसर्गयुक्तः सः अपि च हकारयुक्तः सः भेदः कः भगिनी वदतु
सः विसर्ग विसर्ग अस्ति सः इत्युक्ते
सः
सः विसर्ग
विसर्गयुक्तसः
विसर्ग विसर्गयुक्तसः विसर्गयुक्तसः इत्युक्ते वः इत्युक्ते सर्वनाम सर्वनाम दकारान्त तद् शब्द पुल्लिङ्गकारक
तद् प्रातिपदिकं
तः
इत्युक्ते किं प्रातिपदिकं तः इत्युक्ते किं कोऽपि वदतु
प्रातिपदिकं तः प्रातिपदिकं तद् शब्द न दकारान्तपुल्लिङ्ग प्रातिपदिकं तद्
भगिनि
आं भगिनि
प्रातिपदिकं तः इत्युक्ते किं
सः पुल्लिङ्गशब्दः तत् प्रातिपदिकम् इत्युक्ते
भगिनि एकनिमिषः मम प्रश्नः कः प्रातिपदिकं तः इत्युक्ते किं
प्रातिपदि फ्रम् द प्रातिपदिकं फ्रम् द रूट् वर्ड्
पञ्चम्या अर्थः पञ्चमी अर्थः अस्ति यथा पञ्चमी विभक्ति अर्थः अस्ति तथा तः योजनेन अपि समानार्थक भवति अवगतं दीप्षिका भगिनी
तः इस् पञ्च इस् लैक् पञ्चमी
न तः युक्तपदम् अन्ते यत् पदस्य अन्ते तः आयाति पञ्चम्यार्थ इति वयं बोधितम् अवगतं यथा गृहतः इत्युक्ते गृहतः इत्युक्ते किं घर्से
ओ जस्ट् लैक् पञ्चमी विभक्ति विषये घर्से
वदामि सः वयं तु कृतवन्तः वयं कृतवन्तः चर्चितवन्तः तस्य विषये अस्तु
तः अव्ययपदमस्ति
अव्ययः नास्ति किन्तु विशिष्टपदमस्ति तत् विषय वयं तु अधुना न चर्चित चर्चितयिष्यामि, किन्तु योजनं करोतु भगिनि, तस्य
योजनं. तो स क्या शब्द बोला था, विसर्ग के साथ वाला, स विसर्ग के साथ तह, कैसे बोलेंगे?
स विसर्ग युक्त सह.
अच्छा, विसर्ग युक्त सह, युक्त युक्त मतलब, युक्त मतलब साथ में, युक्ति युक्ति
जुड़ा हुआ.
अच्छा, जुड़ा हुआ,
हुआ.
विसर्ग युक्त सह, विसर्ग युक्त सह इत्युक्ते वह, और इत्युक्ते सह और वह 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 दकारांत पुल्लिंग तद शब्द तह, तह मतलब से.
तद भगिनी शब्द नास्ति, कीदृश
तद प्रातिपदिकम. हाँ, ओके, तह. हाँ, तद इस प्रातिपदिकम ना, तो तद विभक्ति कारक टेबल पुल्लिंग तद शब्द अस्ति सह.
अस्तु भगिनी, किंतु तद प्रातिपदिकम तह, अवगतम?
तद प्रातिपदिकं सह,
सह कुतः आयाति, कहां से आता है सह? तद प्रातिपदिकं तह आयाति.
हाँ, स कहां से आता है, सही है. हाँ, सह तद प्रातिपदिकं
तह
आयातः. हाँ, सह सह तद प्रातिपदिकं तह आयाति. सह और स ह हकार सह ह ह हकार युक्त अस्ति इच्युक्ते के साथ.
कीदृश पदम?
अव्यय पदम, सह अव्यय पदम.
अपि च अन्य कोऽपि? धन्यवादः भगिनी. शैलजा भगिनी, हकारयुक्त सह विषये किमपि अन्य अंश अस्ति वा?
दकार सह दकारान्तः पुल्लिङ्ग तद् शब्दवत् आयाति. सः सर्वनामपदम् अस्ति.
भगिनी, मम प्रश्नः शृणोतु. हकारयुक्त सह इति विषये अन्य कोऽपि अंशः अस्ति वा?
अकारयुक्त सह हकार हकार हकारयुक्त सह 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 इत्युक्ते with in English language it means with आङ्ग्ल भाषायां सह इत्युक्ते with or with the company of or something like that.
अस्तु, सुधा भगिनी वदतु, तस्य विषये इत्युक्ते हकारयुक्त सह विषये किमपि अन्य मुख्य अंश अस्ति वा?
अस्ति भगिनि, सः इति उपपदविभक्ति अस्ति. तस्य पूर्वं किमपि पदम् अस्ति चेत् तत् पदं तृतीया विभक्ति स्वीकरोति.
तदेव मुख्य अंशः कः? हकारयुक्त सः इति उपपदविभक्तिकारणेन तस्य पूर्वपदस्य विभक्ति निर्णय करोति, निर्णयं करोति तत्र. किमर्थम् किमर्थम् इत्युक्ते उपपदविभक्तिकारणेन, उपपदविभक्ति इत्युक्ते किं जानाति वा सुधा भगिनी उपपदविभक्तिविषये किमपि उप इत्युक्ते किम्
उप इत्युक्ते
समीपार्थे उपपद उपपद इत्युक्ते किं
समीपार्थे किमपि पदम्
समीपार्थे इत्युक्ते यत् पदं तस्य पूर्वपदम् अस्ति तत् पदविषये इति दत्तम् अस्तु अस्तु अधुना अवगतं सर्वे इत्युक्ते हकारयुक्तसः इति एक विशेषकार्यं करोति तत् किम् उपपदविभक्तिकारणेन तस्य पूर्वपदं सर्वदा तृतीयविभक्ति स्वीकरोति अवगतं दीप्शिका भगिनी सरोजा भगिनी कविता भगिनी नमस्ते
नमस्कारः प्रणाम सर्वेभ्यः
नमस्कारः स्वागतम् अस्तु उत्तमं गृहपाठरूपेण किमपि
एक मिनट पापा कुछ पूछ रहे हैं हां अनम्यूट कर लो नहीं तो पापा को
वाय कांड इट बी सह पुत्रस्य सह आपणं गच्छति
संस्कृत भाषायां सह इति कारणेन तृतीया मुख्यतः तृतीया योजनीयम् भवतः प्रश्नः तु समीचीनं तस्य कृते अहं द्रष्टव्यं तदनन्तरं वदामि पापाजी उत्तमं प्रश्नः तु उत्तममेव अस्तु अस्तु गतवर्गे अन्य एका प्रश्न उदेति तस्य निवारणं अधुना किञ्चित् मम पार्श्वे अस्ति स्मरति वा एकम् अन्य प्रश्नः उदेति गतवर्गे तत् किं कोऽपि वदतु पिधनं पिधनम् एकं पदं वयं चर्चितवन्तः स्मरति वा
पिधानं वो बंद करना कुछ
हाँ पिधानं पिधानं कीदृशपदं पिधानं अधुना वदामि किञ्चित् अहम् अवगतं सर्वं तु न अवगतं किन्तु किञ्चित् अहम् अवगतम् पिधानं पिदधाति लट् रूपं पिदधाति 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 कुतः आयाति धा धातुतः मूलधातु धा कीदृशधातु पश्यतु एकवारम् अष्टाध्याय्यां मध्ये एकवारं पश्यतु सर्वे कृपया धा अस्ति कीदृशधातु अहमपि पुनः प्रेषयामि धा धातु अस्तु अत्र अस्ति हा धा धातु एकनिमिष स्क्रीन् शेरिङ्ग् मध्ये सर्वे पश्यतु दधाति पश्यति वा सर्वे धा धातु कीदृश धातु कविता भगिनी वदतु कीदृश धातु धा 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 धातु
दुधाई धारण पोषण योहो
धारण पोषण योहो कीदृश पदम
धारण पोषण मतलब उसके बारे में पूछ रहे हैं आप
आम भगिनी धारण पोषण योहो एकम पदम अस्ति तत्र तत् एकं सम्पूर्णपदम् अस्ति कीदृशपदं विभक्तिरूपं किं कोऽपि जानाति वा कोऽपि वदतु
सप्तमी अस्ति
सप्तमी वचन
सप्तमी द्विवचने
द्विवचनं कथं जानीमः सप्तमी भगिनी
धारणपोषण योः इति इति एकं सूचि सूचितमस्ति अन्यत्तु सर्वदा संस्कृतभाषायाम् अर्थः तु सप्तमी एव इति अहं पठितवन्तः
उत्तमम् इति पदम् इत्युक्ते किं धा धातुतः धा धातोः अर्थः कः धा धातोः अर्थः धारणपोषणयोः किमर्थं द्विवचनम् अस्ति कविता भगिनी किमर्थं सप्तमी द्विवचनम्
दोनो को लिए हुए है अर्थ में धारण क्रिया को भी पोषण क्रिया को भी
उत्तमं तदेव धा धातु धातु इत्युक्ते अर्थद्वयम् अस्ति धारण अपि अस्ति पोषण अपि अस्ति उत्तमं सर्वदा इति तु स्मर्तव्यम् इत्युक्ते एकनिमिष तस्य आपकी डिवाइस को हाथ में आप अपनी डिवाइस को रख के क्लास में बैठिए तो वो हल्ला कम आएगा पापा जी वो शीशी शीशी करके हम लोग को आता आपको नहीं पता चलता लेकिन वो माइक इतना सेंसिटिव होता है ना आपको तो पता है माइक कैसे बनते हैं आपने तो मुझे समझाया था जरा सा भी हवा लगती तो वो आवाज करता है मुझे लगता है जब आप हिलाते हैं तो वो आवाज शुशु करके निकलती है हम लोग को सुनाई देती है अस्तु धन्यवाद अस्तु धारण पोषण योहो सर्वदा इति स्मर्तव्यम् अंशः कः यत्र कुत्रापि अर्थः दत्तं संस्कृतभाषायां सर्वदा सप्तम्यार्थे एव वयं स्वीकृतवन्तः सर्वदा सप्तमी विभक्ति स्वीकृत्य एव दत्तम् सर्वदा दुधाई दुधाई कीदृश शब्दः अस्ति दुधाई कोऽपि वदतु दुधाई
दुधाई इति औपदेशिक पदमस्ति
औपदेशिक इत्युक्ते किम्
ओरिजिनल् फार्म्
उपदेशे इति रूपम् अस्ति कस्य उपदेशे कस्य उपदेशे मम उपदेशे तु नास्ति
पाणिनी महोदयाः उपदेशे
पाणिनी महोदयेन यत् दत्तं तत्र वयं तु इति जानीमः पाणिनी भगवान् एव अस्ति किमर्थं भगवान् सर्वं सम्पूर्णब्रह्माण्ड सः एकमेव दृष्ट्या अपश्यत् दृश्यति तेन सम्पूर्णब्रह्माण्ड एकमेव दृष्ट्या शक्यते. अपि च सम्पूर्णव्याकरण एकमेव दृष्ट्या शक्यते. तदेव भगवान्, अन्यथा किम् किं भगवान्, कः भगवान्? भगवान् एव. पाणिनिमहोदयेन यत् वद उक्तवान् तत् वयम् उपदेश, मूल उपदेशः कः? तदेव. तत्र डुधायि दत्तम्, डुधायि तः महोदयेन धा इति धातु अपि दत्तं. धा कीदृशरूपं वदतु कोऽपि. धा किमर्थं धा अस्ति? यदा यदि दुधायि दत्तमेव, किमर्थं वयं धा इति मूलधातु धा अस्ति, किमर्थं वयं वदामः? कीदृश धातु धा वदतु कोऽपि. तस्य प्रयोजनं किम्? धा धातु, तस्य प्रयोजनं किम्, किमर्थम् अस्ति? कोऽपि जानाति वा? सुधा भगिनी किं चिन्तयति? हा, पापाजी वदतु एकनिमिष. भगिनी वदतु पापाजी.
धारणकर्ण.
हा, तत्तु सत्यं, तत्तु अर्थः अस्ति. किन्तु मम प्रश्नः, यदि दुधायि मूल औपदेशिकधातु अस्ति पाणिनिमहोदयेन दत्तं, किमर्थम् अन्य धा इति रूपं दत्तम् इति मम प्रश्नः. किमर्थम् अस्ति धा अपि अस्ति, किमर्थं दुधायि एव न अस्ति? अस्तु, सुधा भगिनी वदतु.
दुधायि इति औपदेशिकरूपम् अस्ति, तस्य परिवर्तनं भूत्वा दा धातु इति सौलभ्यार्थे कृतवन्तः इति अहं मन्ये.
तदेव इत्युक्ते प्रक्रिया भूत्वा तस्य रूपः नूतनरूपः अस्ति. किमर्थं नूतनरूप? सौकर्यार्थे, अस्माकं सौकर्यार्थे. For our ease, to make it simpler for us to see and understand. Api cha tat prakriya, sa prakriya, tasya ha nama kim janati va kopi? Prakriya kim? Ka prakriya? Dudhai. कथं धा भवति? प्रक्रिया का? अनुबन्धलोपानन्तरम्, अनुबन्धलोपानन्तरम्, ये अनुबन्धाः सन्ति ते सर्वे लोपानन्तरम्. लोप इत्युक्ते यत्किमपि अपगच्छति तत् वयं किं वदामः? लोपः. लोप इत्युक्ते चले जाना, गायब हो जाना, न दृश्यते. यत् यः न दृश्यते सः लोपः. अवगतं सर्वे? लोपः इत्युक्ते किम्?
तो लोपः से लोपा आया है क्या? लोपा मुद्रा, लोपा मुद्रा नाम है ना? नहीं, अच्छा, ओके.
तत् अन्य विषय अस्ति.
अच्छा, अन्य विषय, ओके. आम् आम्,
समास बहु जटिल अस्ति. तस्य चिन्तनं मम पार्श्वे एव नास्ति भगिनि. अहं किमपि न वदामि तत्र.
ओके, आम् भगिनि.
अत्र तु लोपः इत्युक्ते, अत्र पश्यतु, लोप दत्तं वा न जानामि. लोप अत्र अस्ति लोप लोप इत्युक्ते किं लोप लोप बहवः अर्थाः सन्ति अस्तु लोप इति अवगतं डिसपियरेन्स् आब्सेन्स् इति वयम् इति अर्थः स्वीकृतवन्तः वदामि अहम् इत्युक्ते अत्र किम् अभवत् अनुबन्धलोप अनन्तरम् अनुबन्धानि कानि किमर्थम् अनुबन्धानि दत्तानि अनुबन्धः कः अत्र डु अत्र डु अस्ति अत्र डु नास्ति पश्यतु अत्र डु अस्ति आदौ डु अस्ति अत्र आदौ डु नास्ति अपि च ञकार अन्ते अस्ति अत्र ञकार अपि नास्ति केवलमध्य धा इति एव तिष्ठति डु अपगच्छति अपगच्छति इत्युक्ते अपगच्छति इत्युक्ते वदतु डिसपियर्स् लोपः अपगच्छति डु अपगच्छति अपि च ञकार अपगच्छति डु इति वर्णः समस्तवर्णः अस्ति इत्युक्ते वर्णसमूहः यूनिट् अस्ति अत्र एकं यूनिट् अस्ति अपि च ञकार अपि अन्यवर्णः अस्ति तत्र इत् संज्ञा एकं कार्यमस्ति इत् संज्ञा एक संज्ञाप्रकरणमस्ति संज्ञा इत्युक्ते नेमिङ्ग् संज्ञाप्रकरणम् इत्युक्ते संज्ञाप्रक्रिया इत्युक्ते नेमिङ्ग् सूत्र देर् इस् अ नेमिङ्ग् सूत्र द वे पाणिनि महोदया हेस् क्रियेटेड् दिस् संस्कृत वित् सच् पर्फेक्षन् इस् देट् ही लैक् मेथमेटिक्स् यू मेक् इट् वेरि क्लियर् द डेफिनिशन् आफ़् वाट् इट् इस् देट् यू आर् यूसिङ्ग् और् वाट् इट् इस् देट् यू आर् गोयिङ्ग् टु डु You have to first define very, very clearly. So he spends the first section of his Ashtadhyayi book making a lot of definitions. New definitions also come later. But majority of the most essential definitions are given in the beginning book of his Ashtadhyayi. And let me remind you, Ashtadhyayi is the world's greatest grammar book. Every language grammarian who has opened his mind in every language and culture has understood that. And they all proclaim that. And it is so perfect that no other grammar comes even 10% close to it. It is like mathematics. It is as pure as mathematics. You cannot go wrong. If you put it into a computer system, it will spit it out, all the correct things. That is why Sanskrit is the perfect computer language that he created even before the concept of our modern computers came into our concept. So, how do you make it perfect? Papaji is a mathematician. He's an engineer. He knows. First, you have to have very distinct definitions. If definitions are themselves hazy, then you cannot make progress. So, he defines these varnas. And he says these varnas get a sanya called it. They are renamed as it varnas. Varna ityukte alphabet. Ityukte du iti it. भूत्वा ञकार इत् भूत्वा नूतनसंज्ञा स्वीकरोति स्वीकृतवन्तः सर्वे अनुबन्ध 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 इत्युक्ते दे आर् बौण्ड् टु द ओरिजिनल् धातु एण्ड् दे रिसीव् संथिङ्ग् काल्ड् अ इत् संज्ञा इत् नेमे इत् तदेव इत् इस् द नेम् आफ् द न्यू नेम् हि हेस् क्रियेटेड् वै हि गेव् इत् हि हेस् अ सर्टन् रीसन् यू एण्ड् ऐ डोण्ट् अण्डर्स्टाण्ड् मे हि यत्किमपि इत् संज्ञा स्वीकरोति अन्य एकं कार्यम् आवश्यकम् देन् इट् लीड्स् टु द नेक्स्ट् क्रिया तत् किम् यत्किमपि इत् संज्ञा स्वीकरोति तत् अपगच्छति लोपः भवति एव इति पाणिनिमहोदयेन दत्तम् So first he gives these varnas it sanya. Tadanantaram it bhutva apagachati eva. Tadanantaram kevala dhatishthati. Niranubandha rupam dha. Dhatoho niranubandha rupam dha. Aupadeshik rupam dudhai. यदा डु अपि च ञकार अत्र अपगच्छति किमर्थं दत्तमेव किमर्थं सन्ति ते तत्र एक बहु सुन्दर रूपेण मातुः पुस्तके दत्तं मातुः तु गृहिणी अस्ति माता तु गृहिणी अस्ति माता इत्युक्ते किं का माता माता इत्युक्ते का
पुष्पा दीक्षित जी
माता दीक्षित पुष्पा पुष्पा दीक्षित माता जी सा बहु सुन्दर व्याख्या लिखितवती तस्याः किं दत्ताः यथा वयं शाकः शाकः इत्युक्ते साग् सब्जि शाक शी इस् अ गृहिणी शी स्पेण्ड् अ लाट् आफ़् टैम् इन् द किचन् इस् लैक् मोस्ट् आफ़् अस् सो यत् यदा वयं शाकः गृहे पाकशालायां स्वीकृतवन्तः प्रथमकार्यः किं प्रथमकार्यं किं क्षम्यतां प्रथमकार्यं किं तस्य किं प्रथमकार्यं किं वदतु कोऽपि वदतु
भोजन भोजन पचामि
न न न न न भोजन इत्युक्ते पचनार्थं प्रथमकार्यं किं पपजि पुनः वदतु प्रक्षालयम् इत्युक्ते साफ् करना प्रथमकार्यं किं साफ् करना साफ् करना इन्वाल्व्स् वाट् उसकी जड़ काट के निकालना मिट्टी निकालना कीड़े निकालना सड़ी पत्ती निकालना निकालना ही पड़ता है कि नहीं यू हैव टू रिमूव दैट बट भाजी जब आती है तो ये सब लेके आती है साथ में सामान अत्रापि इति चिंतयतु ये भाजी जो आई है दूधाई है इसको हम जब निकाल निकूल के तैयार करेंगे तब वो धा बनेगा धा को फिर हम पका के दधाती ऑफर करते हैं ये सब्जी ये बनी हुई सब्जी है दूधाई से दधाती ऐसे आती है अधुना ये तो पाकशाला में तो चलो जड़ की जरूरत होती है हम लोग को कीड़े मकोड़े सड़ी पत्ती उनकी भी जरूरत होती है क्योंकि वो संपूर्ण एक प्रकृति से आ रहा है, उसका एक कार्य था, वो जो कीड़ा है उसका भी एक कार्य था, पॉलिनेशन उससे होता है, कितनी चीजें उससे ठीक रहती है, हमारे पूरे शरीर में कितने माइक्रो ऑर्गेनिज्म रहते हैं जिनके कारण हम स्वस्थ रहते हैं, पूरे ब्रह्मांड में ऐसा है, उसमें भी है, शाख में भी है, जिसके कारण वो स्वस्थ रहते हैं, लेकिन हमको ये सब की क्या जरूरत। अत्र सो द रीजन द वे आई थिंक ऑफ इट एज इन मॉडर्न टाइम्स इज ऑल्सो लाइक अ पैकेज दैट कम्स इन द मेल। आपके घर में कोई पैकेज आएगा तो उसमें क्या होगा, सबसे पहले तो एक बाहर का थैला होगा, उस थैले में कुछ एक जानकारी होती है, कहां से आया, आपको लगेगा ये किसने भेजा, तो वो तो थैले के ऊपर होता है। मान लो आपके घर में एक आपने एक मूर्ति खरीदी, मूर्ति तो अंदर है, आप जब खोलेंगे तब आप सबसे पहले देखेंगे ओ ये किसने भेजा और ये किसको है, मेरे नाम से है, बच्चे के नाम से है, पड़ोसी के नाम से है, नाना जी के नाम से है, किसके नाम से है ये। सो ऑल दैट इंफॉर्मेशन यू नीड और नॉट, यू नीड दैट इंफॉर्मेशन, लेकिन हम लोग क्या करते हैं, वो पैकेज को फाड़ के फिर फेंक देते हैं। इंफॉर्मेशन हमने ले ली, मन में बिठा ली, उसके बाद पैकेज को हम निकाल के फेंक देते हैं और केवल मूर्ति के आगे, अच्छा ये नाना जी को मूर्ति देना है, ये मौसी ने भेजी है, ओके तो नाना जी के पास मूर्ति लेके जाएंगे, नाना जी ये मौसी ने भेजी आपके लिए। सी ऑल दिस इंफॉर्मेशन हाउ डू यू नो, ओनली फ्रॉम द पैकेज ओनली। सो दिस इज व्हाट happens in grammar also. Do brings with it a certain instruction set. Nyakara also brings with a certain instruction set. And although dha mein ye na do dikh raha hai, na nyakara dikh raha hai, isme jab bhi hum murti ko dekhenge, tab nana ji bolenge, ye murti mausi ne bheji hai beta. That information doesn't disappear, although you cannot see it here. Yes or no? Avagatam sarve?
Aam bhagini.
So, although saukaryarthe dha asti, kintu bhaji kahan se aayi, kaun si dukaan se aayi, kaun leke aaya, kiski bhaji hai, isko kaise iska khas prakriya hai kya? All that information हम लोग जब खाते हैं सब्जी वो रहती है, उसकी प्राणिक में जो शक्ति है उसमें भी रहती है, तो वो जो जानकारी है ये यकार और डू हमको दिखाते हैं। और एक्चुअली औपदेशिक रूपम में इसके आगे भी स्वरित अनुदात्त उदात्त और भी एक चिन्ह रहते हैं, इसमें नहीं दिखाए हैं। औपदेशिक रूप में और भी कुछ रहता है जो इसमें अभी भी नहीं है, फुल पैकेजिंग नहीं दिख रही हम लोग को, इसका ये अर्थ है। सो ये जो पैकेजिंग है, जब हम धा को भी देखेंगे अधुना पश्यतु, अब ये देखो ये डू धाई, ये देखो यकार इधर डू भी है यकार भी है, हलंत्यम इति सूत्रेण किम अभवत यकार अपगच्छति तस्य लोपः। इत्युक्ते हलंत्यम क्या करता है, हल अंतिम हल को, सी लुक एट दिस, अंतिम हल को, हल इत्युक्ते किम को भी वदतु, व्यंजनमस्ति, अंतिम व्यंजनम इत संज्ञा ददाति, इति सूत्रम किम कर, इति सूत्र इति सूत्रम किम कार्यम करोति अंतिम हल अस्ति इत्युक्ते अत्र तो न्यकार एव नूतन संज्ञा ददाति तत् किम इत इस संज्ञा भूत्वा इति सूत्रं कार्यं करोति तस्य लोपः इति वदति तस्य इत्युक्ते इत् संज्ञायाः लोपः इति वदति तो ञकारलोपः भवति अत्र अधुना किम् अभवत् आदिर्ञिटुडवः इति एकम् अन्यसूत्रमस्ति इति किं करोति आदौ इत्युक्ते सप्तमी इत्युक्ते धातोः आदौ अन्तिम अत्र तु हल अन्तिम् अन्तिमहल अत्र तु आदौ इत्युक्ते तस्य आदौ धातः आदौ किं नि टु डु किमर्थं वः अस्ति कोऽपि जानाति वा इति विभक्तिरूपम् उ अस्ति चेत् किम् अभवत् गुरु अस्ति चेत् किम् अभवत्
गुरवः
गुरवः इत्युक्ते वदतु
बहुवचनं
बहुवचनरूपमस्ति इत्युक्ते ञकार टु टु एकं यूनिट् अस्ति टाठा डाढाणा इति तु न टु एकमेक सम्पूर्ण यूनिट् अस्ति डु अपि अस्ति डु सन्धि भूत्वा भवति तत्र यथा गुरवः सो अत्र किम् अस्ति डु अस्ति आदौ डु अस्ति आदौ डु अस्ति चेत् किमभवत् तस्य लोपः इत्संज्ञा भूत्वा तस्य लोपः भवति धा आयाति आयाति वा न वा अधुना इति निर् इति निरनुबन्ध इत्युक्ते ते कीदृशवर्णाः अनुबन्धवर्णः अस्ति ञकार अपि च डु कथं जानीमः तस्य लोपः भवति तयोः लोपः भवति तदनन्तरं धा स्वीकृत्य बहवः कार्याणि भवन्ति एव किन्तु कथं प्रयोजनं किं डु अपि च ञकारस्य ञकार अस्ति चेत् बहवः इन्स्ट्रक्षन् दत्ति सूचयति ते यत्र वयं यदा वयं किञ्चित् अन्य व्याकरणविषये गच्छामः तत्र अहं किञ्चित् पाठयामि किन्तु अधुना तु इति सम्यक् एव डुधायि औपदेशिकरूपं धा नूतनरूपं निरनुबन्ध धातुरूपम् तदनन्तरं सप्तम्यर्थे सप्तमी विभक्ति अर्थे धारण पोषणयोः द्वितीयविभक्ति अस्तु अन्य किमपि अस्ति अत्र धा धातु कीदृशधातु कोऽपि वदतु अत्र किं दत्तं कोऽपि वदतु अत्र किं
जुहोत्यादि उभयपदी सकर्मकधातु
इत्युक्ते किं
धातु कः गणस्य
कस्य गणस्य
भवति इति कस्य गणे भवति
कस्मिन् गणे भवति जुहोत्यादिः जुहोत्यादिगणे जुहोत्यादि एकः मुख्य अंशः अस्ति जानाति वा कोऽपि जुहोत्यादिगणे वदतु
धातोः द्वित्वं भवति
द्वित्वम् इत्युक्ते किम्
दा इति मूलरूपम् अस्ति, तस्य द्विवारम् आयाति इति
अभ्यासकार्यं. स्वम् इत्युक्ते अभ्यासकार्यम्. अभ्यास इत्युक्ते किं? बार बार करना. प्राक्टिस् इत्युक्ते किं? किमपि बार बार, कोऽपि बार बार करना, तदेव अभ्यासः न. अभ्यास, अभ्यास इत्युक्ते द्वित्वम्. अत्र द्विवारम् आयाति यथा भवती उक्तवती. द धा, किन्तु धा धा नास्ति. किमर्थं दधा अस्ति? तत्र बहवः सूत्राणि सन्ति तत्र. किन्तु जुहोत्यादिगण यद यदि किमपि धातु जुहोत्यादि इत्युक्ते तृतीयगणे अस्ति चेत् स्मर्तव्यम् अंशः कः? द्वित्वं भवति, द्वित्वं भवति. सर्वदा तु न पश्यामः, किन्तु मूलतः द्वित्वं भवति एव. दधाति आयाति. अधुना अस्माकं विषयः कः? पिधा, पिद, धा, सारी पिद धा ति. पिद धाति नास्ति. पिद
भगिनी द निकाल दीजिए ना, सिर्फ पिधा करके देखिए.
एक निमिष. पिधा अस्ति वा? पिधानम् अस्ति. अस्तु, पिधानं पश्यामः. अस्तु, अत्र किम् अभवत् पश्यतु. धा धातु अस्ति एव. कथम् आयाति पिधानम्? नपुंसकलिङ्गं ल्युडन्तपदमस्ति. इत्युक्ते ल्युडन्त, ल्युट् प्रत्यय अन्ते अस्ति चेत् ल्युडन्तपदम्, ल्युडन्तं, ल्युडन्तपदम्. धा अपि योगः, धा योगः ल्युट्. अपि तु वयं जानीमः, अपि कीदृशपदं कोऽपि वदतु.
अपि अव्ययपदमस्ति.
अव्ययपदमस्ति. अपि योगः धा अस्ति, तदनन्तरं ल्युट् आयाति चेत् पिधानं भवति. इति अर्थः. कथं कीदृ कथम् अपि, किमर्थम् अपि आयाति इति तु भाषायां तु इति पदम् अस्ति एव. तदनन्तरं पाणिनिमहोदयेन अवगतं किमर्थं पिधानम् अस्ति पदं. धा धातुतः आयाति पिधानम्. पि का कुतः आयाति? अपि उपसर्ग इव. उपसर्ग तु नास्ति अपि, किन्तु उपसर्ग इव कार्यं करोति. उपसर्ग यदि धातोः आदौ अस्ति चेत् कानि कानि परिवर्त के परिवर्त किं किं परिवर्तनं भवितुमर्हति? कोऽपि वदतु. प्रश्न पुनः वदामि. उपसर्ग, उपसर्ग आदौ धातोः आदौ अस्ति चेत्, उपसर्गः धातोः आदौ अस्ति चेत् किं किं परिवर्तनं भवितुम् अर्हति इति मम प्रश्नः. वदतु कोऽपि. प्रश्नः कोऽपि हिन्दीभाषायां पुनः वदतु. मम प्रश्नः कः?
धातोः पहले उपसर्ग भवतु किं किं परिवर्तनं हो जाता है इति
हो सकता
है
कितने न हाउ मेनी
न न कति कति तु न किं किं
क्षम्यता
वदतु वदतु किं किं भवितुम् अर्हति
एकमस्ति अर्थस्य अर्थपरिवर्तनम्
अर्थपरिवर्तनं भवितुम् अर्हति अपि च आत्मनेपदी धातु कदापि परस्मैपदी अपि भवति परस्मैपदी धातु आत्मनेपदी भवति तदपि भवितुम् अर्हति इत्युक्ते मुख्यपरिवर्तनम् अपि धातोः भवितुम् अर्हति उपसर्ग यदि अस्ति चेत् बहवः परिवर्तनानि भवितुम् अर्हन्ति अत्र तु धातु तु पालनपोषणयोः किन्तु पिधानम् अर्थः कः वदतु कोऽपि
बंद करना
अत्र अस्ति पिधानम् स्टॉपिंग शीथिंग कवरिंग लिड कवरिंग कवर पिधानक इज द एक्चुअल कवर पिधानम
उपरि भागे अस्ति भगिनि क्लोथिंग
हाँ वदतु भगिनि
उपरि भागे अस्ति क्लोथिंग इति अर्थः सेकेंड
अस्तु अस्तु अत्र अस्ति क्लोथिंग शटिंग क्लोथिंग इति एव सप्रेशन् पी ओ देट् इस् पीडन अस्तु 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 पिधान अत्र अस्ति पिधानं नपुंसकलिङ्गमस्ति चेत् पिधानम् इति सो गतवर्गे इति एकः प्रश्नः उदेति तेन अहं किञ्चित् अन्वेषणं करोमि किञ्चित् अद्य उक्तवती अवगतं सर्वे इत्युक्ते बहवः विषये अहं किञ्चित् उक्तवती किन्तु सर्वे विषयाः तु मुख्य एव व्याकरणे इत्युक्ते कथम् ईदृशरूपम् ईदृश भवति किमर्थम् अत्र सप्तमी अस्ति अपि च जानाति वा न वा सप्तमी इत्युक्ते अर्थः कः धारणा अपि च पोषण ज्योत्यादि इत्युक्ते किं भवति द्वित्वं भवति तृतीयगुण गण अस्ति चेत् इत्संज्ञा इति विषये अपि उक्तवती अहम् इत्संज्ञा मुख्य अंश अस्ति यदि वयं किमपि प्रक्रिया विषये गन्तव्यम् गन्तुम् इच्छति चेत् इत् प्रथमा प्रक्रिया अस्ति यथा पाकशालायां शाक् आयाति च आयाति चेत् प्रथमकार्यं किं तस्य प्रक्षालनं तस्य धोना अस्तु अस्तु अधुना गतवर्गे अन्य किं किम् अन्य वयं कृतवन्तः सः अपि च सः अर्थभेदः तस्य पूर्वस्मिन् पुटे इत्युक्ते एक पञ्चाशत्तमे पुटे वयम् एकम् अभ्यासमपि कृतवन्तः किञ्चित् परिवर्तनम् अपि वयं द्रक्ष्यामः तत् किम् एकवचने द्विवचने अपि च बहुवचने किं किं परिवर्तनं भवति तत्तु वयं कृतवन्तः. अस्तु, सः अधुना द्विपञ्चाशत्तमे पुटे पश्यतु सर्वे. शैलजारूपं शैलजा भगिनी आरम्भं करोतु भगिनी. सः वदतु.
सः पुत्रेण सह आपणं गच्छति. सा सख्या सह विद्यालयं गच्छति.
इत्युक्ते किम् अर्थः?
सः पुत्रके साथ आपणं जाता है. आपणम् इस् मार्केट्.
दुकान.
पुत्रे दुकान जाता है. गच्छति लट्रूपम् अस्ति. प्रथमपुरुषे एकवचनं शब्दः अस्ति. गम् धातुतः आयाति. आपणं नपुंसकलिङ्गपदम् अस्ति. एकवचनपदं. सः इति अव्ययपदमस्ति. पुत्रेण तृतीयाविभक्ति एकवचनपदमस्ति. सः सर्वनामपदं. दकारान्तशब्दः पुल्लिङ्गशब्दः अस्ति.
तत्र किम् अभवत् पुत्रेण सह?
पुत्रेण सह
कीदृशव्याकरण?
इत्युक्ते भगिनि
अत्र कीदृश इत्युक्ते पुत्रेण सह किं दर्शयति?
पुत्रेण सह आपणं गच्छति इति
व्याकरणविषये सः किं दर्शयति?
किं पुत्रेण सह सः सः इति पदम् आयाति.
अस्तु, व्याकरणविषये किं दर्शयति? किञ्चित्
व्याकरणरूपेण सः पूर्वं संज्ञापदं तृतीयाविभक्ति स्वीकरोति. एकवचनपदं स्वीकरोति इति. तस्य नाम पुत्रः. पुल्लिङ्गशब्दः अस्ति चेत् पुत्रेण तृतीयविभक्ति एकवचनपदम् आयाति. सः पूर्वं पदं
व्याकरणे नाम किम्? वदतु कविता भगिनी, वदतु.
उपपदविभक्ति.
उपपदविभक्ति इति दर्शयति. समीचीनं जानाति एव शैलजा भगिनी भवती, किन्तु नाम किम्? उपपदविभक्ति इति दर्शयति. उत्तमं. हा हा, पठतु कविता भगिनी अग्रिमम्.
सा सख्या सह विद्यालयं गच्छति. वह अपनी दोस्त के साथ विद्यालय खो जाती है. तो सख्या इति पदम नहीं, संस्कृत में भूलने को मेरा प्रैक्टिस नहीं है एक्चुअली. सख्या के साथ सह लगने से ये एक मिनट, सख्या तृतीय विभक्ति है. बिकॉज उसके योग में सह आया है इसीलिए वो तृतीय स्वीकार करेगी. और क्या?
अस्तु, सख्या सर्वाणी रूपाणी वदतु तृतीय विभक्ति रूपाणी.
सख्या सखीभ्यां सखीभिः.
उत्तमम् उत्तमं, तदेव सख्या. कीदृशपदम्?
दीर्घ इकारान्तः स्त्रीलिङ्गपदम् अस्ति. नदीवत्.
नदीवत्. नद्याः, नद्या नदीभ्यां नदीभिः तदेव सख्या सखीभ्यां सखिभिः उत्तमम् उत्तमम् अग्रिमं पठतु दीप्षिका भगिनी
हा आं भगिनि उदाहरणं दृष्ट्वा तादृशवाक्यानि लिखतु उदाहरण देखकर वाक्य लिखिए उसके समान तादृश वाक्यानि उसके समान वाक्य लिखिए
तादृश
तादृश
तादृश वाक्यानि
तादृश वाक्यानि हाँ तादृश वाक्यानि लिखतु
लिखतु कीदृश पदम्
लिखतु लोट लकार प्रथम पुरुष एकवचन एकवचनम लिख धातु हूँ
लोट अस्ति चेत् अर्थ कः
लोट अस्ति चेत् आज्ञा आज्ञा धातु
आज्ञा अस्ति प्रथम वाक्यं पठतु
प्रथम वाक्यं रामः रावणः युद्धं कृतवान् तो रामः रावणेन सह युद्धं कृतवान् राम ने रावण के साथ युद्ध किया था
एक दोष अस्ति तत् किम् समीकरणं
रामः रावणेन सह युद्धं कृतवान् कृतवान्
कृतवान्
कृतवान् त्वान्तपदम्
त्वान्त अस्ति वा
नहीं त्वान्त नहीं किया था भूतकाल भूतकाल पदम्
इत्युक्ते कीदृश उत्तमम् कीदृश रामः युद्धं कृतवान् रामः ईदृश रामः युद्धं कृतवान् रामः किन्तु अत्र किं दत्तं रामः किं किं कृतवान् कृतवान् कीदृश पदं वदतु कोऽपि अन्य प्रत्ययः कः तत्र
तवतु
तवतु कृतवतु कृतवतु
तवतु हा तवतु प्रत्यय
हा भूतकालार्थक पुंलिङ्ग एकवचन रूपं कृतवान् रावणेन सह युद्धं कृतवान् युद्धं कीदृशपदम्
युद्धं नपुंसकलिङ्गपदं नपुंसकलिङ्गपदं युद्धको प्रद्वितीय विभक्ति एकवचन
अस्तु अस्तु इति समीचीनं वा
युद्धं किया था युद्ध को किया था नहीं युद्ध ऐसी तो बोलेंगे ना राम ने रावण के साथ युद्ध किया था प्रथमा विभक्ति तो नहीं होगी ये युद्धम कर्म पदम है ना युद्धम
कर्म पदम युद्ध
हाँ तो कर्म पदम है ना हाँ तो द्वितीय विभक्ति एकवचनम नपुंसक लिंगम पदम
कथम नपुंसक लिंगम भवति भगिनी
युद्धम उहान करो तू
किमर्थम उहान कर्म पदम अस्ति चेत् कथम रूपम
युद्धम युद्धं लोहलो
वदतु तस्य विषये जानाति वा जानाति चेत् वदतु कीदृशपदम् अत्र पश्यतु ऊहं मा करोतु भगिनि कीदृशपदं वदतु
नपुंसकलिङ्गमेव भगिनि
हा किन्तु अत्र ऊहां मा करोतु किमर्थम् अम् आयाति अन्ते अम् पुंलिङ्गम् अस्ति चेत् अपि अम् आयाति भगिनि, स्त्रीलिङ्गम् अस्ति चेत् अपि अम् आयाति अन्ते. इत्युक्ते अत्र कर्मपदम् अस्ति चेत् ऊहां मा करोतु.
न्यूटर् जेण्डर् लपुंसकलिङ्गपदम्.
रामः अस्ति चेत् रामं भवति वा न वा?
हा रामं भवति.
ऊहां कृत्वा तु असाधुरूपम् आयाति एव. ऊहां मा करोतु भगिनि अत्र. किमर्थं कर्मपदं तु अम् मकार साधारणरूपे आयाति एव. तदेव अहं वदामि.
आं भगिनि.
इत्युक्ते विभक्ति का विभक्ति अस्ति इति मनसि स्पष्टता भवेत् आवश्यकम्. अवगतम्?
आं भगिनि.
उत्तमम्. अस्तु पापाजी पठतु अग्रिमम्.
नम्बर् टु.
लक्ष्मणः रामेण सह वनं गतवान्. लक्ष्मणः रामेण सह वनं
गतवान्. उत्तमं. लक्ष्मणः रामेण सह वनं गतवान्. उत्तमं पापाजी. अस्तु अधुना शैलजा भगिनी वदतु. रामेण इति पदे भवति वा न वा?
रामेण भवति भवति भगिनि. मकार अस्ति चेत् मावर्ग नकारपूर्वं मकार अस्ति चेत् मावर्गस्य स्वरः अस्ति चेत् नकारं भवति.
इत्युक्ते कवर्ग पवर्ग स्वर
स्वरः
अस्ति चेत् णत्वं
नकारं नकारं परिवर्तनं भवति.
दन्त्यनकार नका मूर्ध मूर्धन्य णकार भवति. उत्तमं भगिनि, सुन्दरम्. रामेण सह वनं गतवान्. गतवान् कीदृशपदं शैलजा भगिनि?
गतवान् तवतु पदं पुल्लिङ्गशब्दः एकवचनपदम् अस्ति.
धातु किं?
गम् धातुतः आयाति सकर्मकक्रियापदम्.
उत्तमम् उत्तमं. लक्ष्मणः रामेण सह
अकर्मकक्रियापदं, सोरि भगिनि.
गतवान्
अकर्मक.
गम् धातु परं पुनः पश्यतु. गम् कीदृशधातु पश्यतु भगिनि.
आं सर्चिङ्ग् भगिनि.
अहं तु प्रेषयामि एव.
गच्छति. गतौ सकर्मक हि अस्ति. आम्
सकर्मक अस्ति.
गच्छति. कः सकर्मकः भगिनि? गच्छति.
अत्र इत्युक्ते गृहं गच्छामि. घर को जाती हूं.
कः गच्छामि? गृहं गच्छामि.
कः न
कर्मपदं स्वीकरोति. गृहं गच्छामि. गृहं द्वितीयविभक्ति एकवचनपदम् अस्ति चेत् गम् धातु सकर्मक्रियापदम्.
कं गच्छामि? कः गच्छामि? साधु नास्ति.
क्षम्यतां. कं गच्छामि?
कं गच्छामि? गृहं गच्छामि. विद्यालयं गच्छामि. सकर्मक अस्ति एव.
सकर्मक एव.
अस्तु लुक् अस्तु अधुना पश्यतु कीदृश औपदेशिकरूपं पठतु भगिनि.
औपदेशिकरूपं I cannot, I'll try to pronounce it, bhagini. Gamau gatau.
No, gatau tu...
Gatau...
Saptami arthe, atha...
Saptami.
Saptami eka vachana rupam, gatau. यथा भूमि अस्ति चेत् अत्र औपदेशिकरूपं पठतु भगिनि.
अळु वा भगिनि?
अस्तु उत्तमम्. अस्तु
भगिनि, सारी, रामेण का जो आपने एक्सप्लेन किया ना कि वो कभी कभी ण लेता है क्योंकि वो ए आया, मतलब स्वर है, इसीलिए वो न का ण हो गया.
ना 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 ना, तत्तु विषय नास्ति भगिनी. अस्तु शैलजा भगिनी वदतु तत्र ऋणत्वम् इत्युक्ते किम्, अपि च निमित्तं किम्, निमित्तं जानाति वा?
आं भगिनि, निमित्तं
वदतु.
रकार शकार ऋकार इति निमित्तं. निमित्तम् इत्युक्ते कॉज. इति स्वरः, फॉर एग्जांपल विष्णुः अस्ति चेत्, विष्णुः अस्ति
भगिनि भगिनि, स्वर नास्ति, ऋकार रेफ शकार तु वर्ण, स्वर नास्ति.
आम् वर्णः.
वदतु.
If you take an example with Vishnu, nakara, antima swaraha nakarava, nakarava, iti nakara purvasya swaraha, shakara asti chet, repa madhye swaraha asti chet, iti nakaraha bhavati, parivartanam bhavati. So Vishnu, परिवर्तनानन्तरं विष्णुः इति लिखामः. स्वरस्य पूर्वं, वर्णस्य पूर्वं कवर्गस्य स्वरः, स्वराः, वर्णाः, अपि च पवर्गस्य वर्णाः इति अक्षरः अस्ति चेत् नकारः णकारः भवति, परिवर्तनं भवति.
अन्य तकारः अस्ति चेत् किम् अभवत् मध्ये?
हा, नकारपूर्वं तकार सवर्गस्य कवर्ग पवर्ग अस्ति चेत् नकारं भवति, त अस्ति चेत् न भवति. सूत्रम् इति अक्षरः न भवति चेत् परिवर्तनं नास्ति.
अस्तु अस्तु, भवती तु अवगतं, किन्तु उत्तमम् उत्तमम्. किन्तु एकवारं पुनः दीक्षिका भगिनी किञ्चित् स्मारयतु पुनः, रक्तवम् इत्युक्ते किम्, कथं भवति ऋणत्वम्, अस्ति वा दीक्षिका भगिनि? नास्ति वा? अस्तु, सुधा भगिनि वदतु.
आं भगिनि, नकार णकार भवति रेपस्य मूर्धन्य शकारस्य ऋकारस्य अनन्तरम् आयाति चेत्, ये वर्णाः हेतुः भवति, कारणं भवति, निमित्तम् अस्ति. अत्कुप्वाङ् न्युं व्यवायेति इति सूत्रेण किमपि स्वरः अस्ति चेत्, कावर्ग अस्ति चेत्, पावर्ग अस्ति चेत् नकारः णकारः भवति.
कुत्र अस्ति चेत्?
नकारस्य पूर्वं हे का निमित्तस्य अन्तरम् अनन्तरं नकारस्य पूर्वम्.
इत्युक्ते निमित्तम् अपि इत्युक्ते शकार रेफ अपि रुकार पूर्वे ये अस्ति चेत् नन्तरं दन्त्यनकार अस्ति चेत् मध्ये यत्किमपि स्वरः भवति यत्किमपि पकारस्य वर्णः भवति यत्किमपि मकारस्य वर्णः भवति चेत् णत्वं भवति एव किन्तु मध्ये इत्युक्ते शकार रेफ रुकारस्य रुकार अपि च दन्त्यनकारस्य मध्ये उन दोनों के बीच में यदि स्वरः कवर्ग पावर्ग नास्ति चेत् अन्य किमपि वर्ण अस्ति चेत् णत्वं न भवति पदे विदिन् एकमेव पदे विदिन् वन् वर्ड् इति णत्वं मूलतः अस्ति अवगतं कविता भगिनी किञ्चित्
Trying to understand, तो फिर द्वितीय बहुवचन में रामान क्यों आया?
अन्य एकम अन्य विशेष सूत्रम अस्ति तत्र बाधा करोति
अच्छा
हाँ
तो जो जो मैं समझती हूँ उसका सिर्फ शॉर्ट में समरी जिस शब्द में र है क्ष है या रू है उसमें अगर म क या स्वर है बीच में और उसके बाद अगर न आने वाला है तो वो ण में परिवर्तित हो जाएगा
उत्तम मूलतः मूलतः तदेव णत्वस्य विषये नवत्रिंशत् सूत्राणि सन्ति नवत्रिंशत् सूत्राणि सन्ति णत्वस्य विषये इत्युक्ते जटिला विषयः अस्ति किन्तु मुख्यतः तु इति एव अस्ति प्रमुखसूत्रं जानाति वा कोऽपि
रसाभ्यां नोणः समानपदे
उत्तम रसाभ्यां नोणः समानपदे इति तु निमित्तं किम् इति दत्तं तदनन्तरम् अट्कुप्वाङ् नुं व्यवायेऽपि इति मध्ये किं किं भवितुम् अर्हति इति दत्तम् उत्तमं तदेव समीचीनम् अधुना उत्तमम् अस्तु अग्रिमं कस्य क्रमः अस्ति कः करोति लक्ष्मण रामेण सह वनं गतवान् हा शैलजा भगिनी करोति अस्तु अधुना
आं भगिनी
हा अधुना कविता भगिनी कृतवती वा
न भगिनी अहं न करोमि गोपालः माधवेन इधर न आएगा या ण आएगा मैं कन्फ्यूज हूँ
वदतु भगिनी
अभ्यासं करोति
करोतु कीदृश वर्णाः सन्ति तत्र
हाँ इसमें र श या रू का तो नहीं है म है तो माधवे न आएगा नॉर्मल न नॉट ण दंत्य वाला न आएगा दंत्य वाला न आएगा नॉट
मूर्धन्य नास्ति दंत्य एव
मूर्धन्य नास्ति दंत्य एव गोपालः माधवेन अभ्यासं करोति
एक दोष अस्ति तत्र समीकरोतु पुनः वदतु
सः गोपालः माधवेन सह अभ्यासं करोति
दीक्षिका भगिनी समीकरोतु
गोपालः माधवेन सह अभ्यासं करोति
दोषः कः भवति तत्र कविता भगिनी जानाति वा भवत्याः दोषः कः अस्ति तत् आसीत् माधवेन सम्पूर्ण उच्चारणं भवेत् इति माधवेन सह अभ्यासं करोति.
क्षम्यतां, गोपालः माधवेन सह अभ्यासं करोति.
अत्र माधवेन सह व्याकरणविषये किं दर्शयति, कः अंशः दर्शयति?
उपपदविभक्ति कारणेन माधवेन इति के संयोग में सह आने से वो तृतीय विभक्ति लिया है माधवेन.
बहुवचन रूपं वदतु सर्वाणि सर्वाणि पदानि वाक्ये.
गोपालाः माधवान् सह अभ्यासं कुर्वन्ति करोति.
समीचीनं वा दीक्षिका भगिनी, समीचीनं वा?
कविता भगिनी, विल यू रिपीट अगेन प्लीज?
पुनः वदतु.
गोपालाः
पुनः वदतु.
गोपालाः माधवान् सह अभ्यासं कुर्वन्ति. ऐ करेक्टेड् इट्?
न भगिनी, समीकरोतु दीक्षिका भगिनी.
गोपालाः गोपालाः
माधवैः गोपालाः माधवैः सह अभ्यासं कुर्वन्ति.
उत्तमम्. पुनः वदतु कविता भगिनी.
गोपालाः माधवैः सह अभ्यासं कुर्वन्ति.
तदेव सुन्दरम्. अस्तु, सुधा भगिनी अग्रिमम्.
आं भगिनि, अहं मित्रं नाटकं पश्यामि. अहं मित्रेण सह नाटकं पश्यामि.
तत्र व्याकरणरूपे किं किम् अभवत्?
मित्रेण नत्वं भवति.
निमित्तं किं?
निमित्तं रेपः अस्ति मित्रेण. अत्र
किं किम् आयाति?
मध्ये अकार आयाति.
अकार आयाति वा?
मित्रे एकार. एकार
स्वर अस्ति चेत्
णत्वं भवति.
णत्वस्य कृते बाधा न करोति. अग्रिमम् अन्य किम् अभवत् व्याकरणरूपे?
क्षम्यतां भगिनि, अद्य मम गृहे नव ब्रह्मकमल पुष्पाणि खिलति.
विकसन्ति.
विकसन्ति.
पुनः वदतु.
अद्य मम गृहे नव ब्रह्म कमल पुष्पाणि विकसन्ति. मम समय 7:30. तो मम दृश्यामि.
पश्यामि.
प्रपश्यामि.
अहं पश्यामि.
इट विल दे विल स्टार्ट ब्लूमिंग नाउ बिकॉज इट्स बिकम लिटिल डार्क.
भगिनी, एक वर्ष अभवत् वा अद्य?
एक वर्ष अभवत्. हाँ, लास्ट टू इयर्स दे हैव बीन ब्लूमिंग.
ना ना ना, अम्मा अम्मा.
हाँ अम्मा, एक वर्ष. हाँ, टुडे वन ईयर ओवर. टुडे इज 9th June.
ब्लूमिंग. अम्मा इज ब्लूमिंग.
हाँ, टुडे वन ईयर ओवर.
वन ईयर. नाइन.
नाइन. हाँ, टुडे इज 9 एंड 9 आर गोइंग टू ब्लूम टुडे. व्हाट अ कोइंसिडेंस.
एक साल हुआ पापा आज.
इसका
कुछ ऐसा समय आता है, आपको कैसे पता कि अभी खिलेंगे?
क्योंकि ब्रह्मा, हाँ एक साल हो गया, ब्रह्मा कमल कैसे पता, मतलब I see, look at them every day, na, and I see the change. Now, in these last 2-3 years, I have come to recognize that when they reach this size and they become absolutely white, they change the color, then I know this evening they will bloom.
If Bhagini allows, can we also see? Can you do screen sharing?
Deepa, ek hi din khilte na?
हाँ हाँ, एक ही रात, ओनली नाइट देल ब्लूम, देल स्टार्ट ब्लूमिंग नाउ एंड टिल 9:30 देल ओपन कम्प्लीटली. अभी तो इट विल जस्ट बिगिन, देन 9:30, बाय 9:30 इट ओपन्स कम्प्लीटली एंड देन होल नाइट इट विल स्टे ओपन फॉर पॉलिनेशन एंड अर्ली मॉर्निंग 4:30 इट स्टार्ट विल्टिंग.
दीपा एक फोटो उसमें कुटुंब में भी डालना और हम लोग के ग्रुप में डालना, उनकी अम्मा का नाम लिखा.
हाँ 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 ओके. I can try a video sharing, but I am not sure whether.
No.
नहीं, it won't reach. हाँ मदर.
अत्र माँ करो तू, किंतु.
हाँ, I'll just click a photo and share. हाँ हाँ
हाँ. WhatsApp मत.
WhatsApp.
धन्यवाद.
हाँ. धन्यवाद वगैरह.
सुंदरम एवा, सुंदरम, सुंदरम.
हाँ.
उत्तम. अस्तु, तस्य क्रमः अहं वदतु भगिनि.
अस्तु, अहं क्लास 7:30 भगिनि.
अस्तु अस्तु, नमस्ते भगिनि.
हा,
सुधा भगिनि वदतु.
हा भगिनि, किमपि अन्य व्याकरणविषयम् अस्ति? मित्रेण सह इति उपपदविभक्ति कारणेन मित्रेण तृतीया विभक्ति अस्ति.
उत्तमम्. अस्तु, अधुना द्विवचनम् अस्ति चेत् सम्पूर्णवाक्यं वदतु.
आवां मित्राभ्यां नाटकं पश्यतः.
समीकरोतु.
आवां मित्राभ्यां नाटकं पश्यावः.
शैलजा भगिनी समीकरोतु.
आं भगिनी, आवां मित्रेण अकारान्तः पुल्लिङ्गशब्दः. आवाम् नपुंसकलिङ्गं, सोरि भगिनि, नपुंसकलिङ्गपदं द्वितीया विभक्ति मित्रे. आवां मित्रे सह नाटकं पश्यामः.
अस्तु, बहवः दोषाः सन्ति तत्र. कविता भगिनी समीकरोतु.
पश्यावः भगिनि, सोरि.
पुनः वदतु शैलजा भगिनि, समीकरोतु.
आं भगिनि, आवां मित्रे सह नाटकं पश्यावः.
मित्रे की पृष्ठ,
सॉरी भगिनि, द्वितीय विभक्ति.
कथं तु द्वितीय आयाति अत्र भगिनि?
अहं मित्राभ्यां सह इति अहं न वदामि.
सह तु आवश्यकमेव.
आम् आम्, जनाः अस्ति चेत् सः आवश्यकमेव. अहं
नास्ति चेत् अर्थः परिवर्तनं वदतु.
अहं प्रश्नं न जानामि किमर्थं.
वाक्ये सः हकार न, सः इति पदं नास्ति. अर्थपरिवर्तनं वदतु.
अहं मित्रेण नाटकं पश्यामि. इत्युक्ते नाटकं पश्य मित्रेण वित् नास्ति बै बै के द्वारा मित्र के द्वारा नाटकं पश्यामि
इत्युक्ते मित्रो मित्र मित्र तुम्हारी आँख बनती है
हाँ इट बिकम्स लाइक अ टूल
आवश्यकमेव सः तु पदम् आवश्यकमेव
आम्
उत्तमम् अस्तु पापाजी अग्रिमं पठतु अस्ति वा पापाजी अग्रिमं पञ्च पञ्चबिन्दु पञ्चमं बिन्दु पठतु एषा अस्ति वा पापाजी नास्ति मन्ये अस्तु सरोजा भगिनी करोतु
एषा सीता रमावत् शब्दः अस्ति तृतीयविभक्ति सीतया सह तिष्ठति एषा सीतया सह तिष्ठति
द्वितीय द्विवचने वदतु
तृतीयविभक्ति द्विवचनं भगिनि
वाक्यं यदि द्विवचनम् अस्ति चेत् सम्पूर्णवाक्यं वदतु
आं भगिनि एताः तृतीयविभक्ति द्विवचनं एता सीताभ्याम्
एताः वचनं किम्
एषा दकारान्तः स्त्रीलिङ्ग अस्ति चेत् प्रथमाविभक्ति एकवचनं द्विवचनम् एषा एते एताः एते सोरि भगिनि एते सीताभ्यां सह एते सीताभ्यां सह तिष्ठति तिष्ठतः तिष्ठति तिष्ठतः तिष्ठन्ति तिष्ठतः
अस्तु तिष्ठतः कीदृशपदम्
तिष्ठतः तिष्ठतः मध्यमपुरुष द्विवचनं
धातु किम्
धातु तिष्ठते
भगिनि
आं भगिनि सर्वनाम शब्दः नै भगिनि फस्ट् पर्सन् सोरि प्रथमपुरुषः एषा एषा तिष्ठतः
अस्तु धातु किम्
तिष्ठति न जानामि
कविता भगिनी वदतु धातु किं तत्र तिष्ठति जानाति वा हा सुधा भगिनी वदतु
ता धातु एव
धातु कीदृशधातु स्था
सकर्मकधातु अस्ति
अकर्मक
अकर्मक अस्ति था इति अत्र था गतिनिवृत्तौ गतिनिवृत्तौ इत्युक्ते गतिः मा भवेत् औपदेशिकरूपं ष्ठा मूर्धन्य षकार मूर्धन्य ठकार ष्ठा मूर्धन्य ठकार तु न किन्तु हा टाटा मूर्धन्य एव टाटा डाढा गति निवृत्तौ स्था धातु भुआदिगणे परस्मैपदी अकर्मक उत्तमम् अस्तु पठतु भगिनी सुधा भगिनी अग्रिमम्
आं भगिनि सुरेशः भगिनी सम्भाषणं करोति सुरेशः भगिन्या सह सम्भाषणं करोति.
द्विवचनं
सुरेशौ भगिनीभ्यां सह सम्भाषणं करोति.
भगिनीभ्यां नी दीर्घ वा ह्रस्व वा?
दीर्घ. भगिनीभ्यां
सुरेशौ भगिनीभ्यां सह सम्भाषणम् इत्युक्ते
सम्भाषणं करोति न कुर्तः.
सम्भाषणानि
कुर्तः
कुर्वन् ओ सोरि सम्भाषणे द्विवचने क्षम्यतां सम्भाषणे
सम्भाषणे कुरुतः
कुरुतः. बहुवचनं
सुरेशाः भगिनीभिः सह सम्भाषणे सम्भाषणं कुर्वन्ति.
सम्भाषणानि
कुर्वन्ति.
उत्तमम् उत्तमं. कविता भगिनी अग्रिमम्.
माता पुत्रया पुत्रिका तृतीया पुत्रया कैसे बोलेंगे?
पुत्र्या
नदी नद्या
पुत्र्या
पुत्र्या सह कार्यं करोति.
उत्तमं. द्विवचनं
माते पुत्रीभ्यां.
माते समीचीनं नास्ति भगिनी. न माते न ईदृशपदं माता विशिष्टपदम् पश्यतु. पुटसङ्ख्या वदतु कोऽपि.
रमा वा?
हा रमा नास्ति भगिनी.
तु द्विवचन प्रथमविभक्ति
षट्विंशतिः
षट्विंशतिः
षड्विंशतिः
षड्विंशतिः तमे पुटे पठतु.
च मातृका आएगा मातरौ
रूकार अस्ति भगिनि.
मातरौ पुत्रीभ्यां सह कार्यं कुरुतः.
वचनं किम्?
उसका भी द्विवचन
करोतु.
कार्यम् ऐम् जस्ट्
कीदृशपदम्?
कार्य नपुंसकलिङ्ग. तो कार्ये तो मातरौ पुत्रीभ्यां सह कार्ये कुरुतः.
अपि च बहुवचनं
मातरः पुत्रीभिः सह कार्याणि कुर्वन्ति.
उत्तमं. तत्र णत्वं भवति वा न वा वदतु तद्विषये.
आम् कर क्योंकि क है शुरुआत में निमित्त नहीं कार्याणि बीच में तो नहीं आया दूसरा कुछ रेफ श या रू तो न आएगा कार्याणि करो कुर्वन्ति
भगिनी निमित्त
न नहीं आएगा.
निमित्तम किम?
क क है शुरुआत में तो र और क नहीं एक मिनट र फैमिली क फैमिली का अगर कुछ शुरुआत है और बीच में सॉरी
ना भगिनी ना
नहीं
सुधा भगिनी समय करो तू.
निमित्तम अस्ति कार्य कार्य रुकार अस्ति कार्य
आकार अस्ति कार्य रकारः योगः आकारः भगिनी
रुकार असाधुरूपम्
रुकार न रेप अस्ति कार्य रकार हेतु अस्ति
किन्तु अत्र रुकार नास्ति अत्र निमित्तं किम्
रेप
रेप क निमित्तं नास्ति कविता भगिनी का तु यदि मध्ये अस्ति तद् तदनन्तरं बाधा न करोति किन्तु निमित्तं तु मूर्धन्य शकार मूर्धन्य रुकार अपि च रेफ अस्ति एव आदौ रेफ शुक् मूर्धन्य शकार रुकार अस्ति चेत् नन्तरं दन्त्य न अस्ति चेत् मध्ये स्वर अस्ति चेत् कवर्ग अस्ति चेत् पवर्ग अस्ति चेत् णत्वं भवति तदेव अधुना वदतु
I'm sorry फिर भगिनी रामेण में क्यों आया क्योंकि इसमें तो शुरुआत में र है बीच में तो नहीं है
न कुत्रापि अस्ति चेत् आदौ इत्युक्ते नकारस्य आदौ
अच्छा भगिनी भी हो तो अभी जैसे ये सॉरी
दंत्य नकारस्य आदौ दंत्य नकारस्य आदौ न से पहले पदे पद में इति एव
भगिनी
वदतु
इत्र निमित्तम आ स्वरः अस्ति अस्ति वा भगिनी कार्याणि निमित्तम आकारः
भगिनी इत्र कीदृशपदम् इत्र तु
कार्याणि
भगिनी इत्र भवती उक्तवती इत्र किमपि पदं नास्ति तत्र
इति वाक् इति शब्दे कार्याणि शब्दे
निमित्तं किम्
निमित्तं का योगः र योगः आकारः या योगः आकारः कार्याणि आकारः अस्ति चेत् निमित्तम् आ भवति वा
निमित्तम् इत्युक्ते किं निमित्तम्
निमित्तम् इत्युक्ते रकार पकार शकारः किन्तु आकारः अस्ति चेत् विनिमित्तं भवति इति मम प्रश्नः
न मद् अस्तु निमित्तं
नकारः पूर्वम्
एकनिमेषः भगिनि एकनिमेषः लिखतु सर्वे लिखतु निमित्तम् इत्युक्ते कास् आदौ इत्युक्ते अन्तिमदन्त्यनकार अस्ति चेत् तस्य आदौ एक पद में दंत्य नकार अस्ति चेत वो न से पहले यदि किम मूर्धन्य शकार रुकार अपि च रेफ अस्ति चेत मध्ये वो दोनों के बीच में या तो साक्षात अस्ति यथा विष्णु तत्र शकार नकारस्य मध्ये किमपि नास्ति तदपि समीचीनं किन्तु मध्ये अन्यवर्णाः सन्ति चेत् कीदृशवर्णाः किमपि स्वरः
लेट्स् से विषाणु शब्दः है
न विषाणु मध्ये आकार आयाति आकार शृणोतु भगिनी निमित्तं किं मूर्धन्यशकार रेफ रुकार तदनन्तरं स्वरः अस्ति चेत् कवर्ग किमपि वर्ण अस्ति चेत् पवर्ग किमपि वर्ण अस्ति चेत् अनन्तरं दन्त्यनकार अस्ति चेत् णत्वं भवति इति एव नियमः पुनः वदतु
हिन्दी में कहेंगे
एक पद के अंदर शुरू में रेफ शुरू में मीन कहीं भी ना से पहले शुरू में डजंट मीन द पद के शुरू में इट मीन्स ना से पहले पद में कहां क्या रेफ शकार रुकार अस्ति चेत होने से और वो तीनों निमित्तम में से कोई भी एक होने से और अंत में या कहीं भी बीच में पद में उसके बाद न आता है, तो उन दोनों के बीच में निमित्तम अपिच निमित्ति कॉज एंड इफेक्ट दोनों के बीच में अगर कोई भी स्वर हो या कोई भी क वर्ग हो या प वर्ग हो, वर्ग का वर्ण हो, तो णत्वं भवति एव इति। वदतु भगिनी नियमः कः?
अगर किसी पद में न के पहले रेफ शकार या रुकार आए, नॉट नेसेसरी पद के शुरुआत में न के पहले है, तो फिर और अगर उनके बीच में कोई भी स्वर या क वर्ग या दूसरा कौन सा वर्ग कहा आपने, क वर्ग या प वर्ग अगर नहीं है बीच में, तो फिर वो ण हो जाएगा?
नहीं 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 नहीं, अदर वे राउंड, स्वर क वर्ग प वर्ग बाधा न करोति णत्वस्य कृते, बीच में अगर इन तीनों में से कोई भी एक है तो णत्वम होता है, लेकिन अगर त वर्ग आ गया, ट वर्ग आ गया, च वर्ग आ गया, तो वो णत्वम को रोकेगा।
ओके, तो अभी कार्यम, कार्य जो शब्द है अभी कार या नहीं, तो रेफ है और न के पहले है और बीच में आ है, तो वो न नहीं होगा, ण बनेगा, कार्याणी होगा।
किंतु मध्य एक अन्य वर्ण अस्ति, वदतु।
कार्याणी, तो आ आ रहा है बीच में,
अन्य अन्य
भी और यह भी है, यह भी है, तो इसीलिए न ही रहेगा, फिर ण नहीं होगा।
या अपि अपि स्वर अस्ति भगिनी, सेमी वाउल, वयम् किं चिन्तस्थः तु सेमी वाउल्स् अस्ति, अट् अट् अस्ति, अट् कुप् वाङ् नुम् व्यवयाति, अट् इत्युक्ते यदु यदि वयं पाणिनि सूत्राणि पश्यन्ति चेत् अट् इत्युक्ते के वर्णाः सुधा भगिनी?
अट् इत्युक्ते सर्वे स्वराः अपि च अन्तस्थाः।
वदतु सर्वे सूत्राणि वदतु।
अट्कुप्वाङ्
न न न न अट् अट् अट्
अट् सूत्राणि
वदतु। अ इ उन्
ऐ उन् रुल् रुक् ऐ ए ओं ऐ ऐ औच्
इत्युक्ते ते सर्वे वर्णाः। अवगतं कविता भगिनी?
आं भगिनी, तो अभी य भी है, आ भी है रेफ और रेफ के साथ और न के पहले, तो वो ण स्वीकार करेगा, तो कार्याणी होएगा।
उत्तमं, तदेव।
किन्तु भगिनी निमित्तं हियर इज आकारः स्वरः अस्ति चेत् नकारः परिवर्तनं
भगिनी, आ तु किमपि निमित्तं नास्ति, हौ केन् यू मेक् आ निमित्तं भगिनी?
बट् यु सेड् अट् स्वरः अस्ति चेत् परिवर्तनं भवति इति उक्तं
न भगिनी, अट् मध्ये अस्ति चेत्, अट् किमपि वर्ण मध्ये अस्ति, अट् वर्ण अस्ति चेत् क वर्ग क अट् कुप् अट् कुप् इति तु सूत्रं किं वदति, मध्ये के वर्णाः भवितुम् अर्हन्ति चेत् णत्वं णत्वस्य कृते बाधा नास्ति इति एव। रसाभ्यां नो नः इति निमित्तं सूत्रं, रेप शकार रुकार इति एव निमित्तम्, आ स्वर किमपि निमित्तं नास्ति भगिनि, मध्ये एव। वदतु हिन्दीभाषा, आङ्ग्लभाषायां वदतु, णत्वं नियमः कः वदतु।
if the word has sorry please attempt
संस्कृत भाषायां वदामि भगिनि फार् एक्साम्पल् इन् द वर्ड् विष्णु द लेटर् बिफोर्
नियमः वदतु आङ्ग्लभाषायां
हा द कास् फोर् हेपनिङ्ग् न इन् टु णा इस् आर् दीस् लेटर्स् लैक् रेप मूर्धन्य रेप शकारः ऋकारः इफ् दीस् लेटर्स् एक्सिस्ट् बिफोर् द लास्ट् लेटर् देन् द ना इस्
इत्युक्ते किं
र इत्युक्ते रेप
रेप वदतु
रेप शकारः शकारः ऋकारः if these letters are there before the last letter of n na then na is converted into ana and also if there are letters that belongs to kavarga and pavarga then before the letter na then nakaram happens na is changed into ana
अस्तु कविता भगिनी समीकरोतु
ओके इफ् इन् अ वर्ड् देर् इस् रेफ शकार ऋकार बिफोर् द न एण्ड् इट् कुड् बि एनिवेर् इन् द वर्ड् बिफोर् द न नाट् नेसेसरि इन् द बिगिनिङ्ग् और् एण्ड् देर् इस् a swarg a swar in between them or ka varg or pa varg then the na converts into na so the nimittam or the cause would be the repha sha shakara and rukara and the other condition is that between the na and these repa shakar and rukar there has to be either a swar or a kavarg or a pavarg for the na to convert into na is that correct
astu bagini astu Shailaja bagini avagatam kinchit you said that in the middle if there is ka or pa it doesn't stop ranatvam किन्तु इन् बिट्वीन् द निमित्तं विच् इस् द त्री वर्णस् श रेफ रुकार एण्ड् द फालोयिङ्ग् न एनिवेर् विद् इन् द वर्ड् सेम् वर्ड् देट्स् वट् यु हेव् टु रिमेम्बर् नाट् एट् दि एण्ड् आफ़् द वर्ड् द न डजन्ट् हेव् टु बि एट् दि एण्ड् आफ् द वर्ड् इट् हेस् टु बि विदिन् अ वर्ड् एनिवेर् इफ् दीस् त्री वर्णस् आर् फालोड् बै न dantyana that's all it can all of it can happen inside of the word anywhere inside the word this has to be the order order is what first the nimittam then the nakara now sometimes other words other sounds also other letters come in between which letters do not cross a stoppage of natvam swara doesn't at doesn't Kavarga doesn't and Pavarga doesn't. That's all you have to remember. You have to think that A, the Swara, is not a Nimittam. A is a middle Varna in between that is allowed to be there for Natvam. That's all.
So Natvam happened only because of Repa, not Akaraha.
Na, Bhagini.
The cause is Repa only. Here in Karyani.
Bhagini, there are three nimittas, na?
In the word karyani, Bhagini, in the word karyani I'm talking about, the nakara happened only because of repaha, not because of akaraha. That's what I want to understand.
Uttamam. निमित्तम् इत्युक्ते रेफ षकार ऋकार एव सर्वदा सर्वदा तदेव तत्त्वम् एनिवेर् इन् द वर्ड् दिस् इफ् दिस् इस् दि आर्डर् विच् इस् दि आर्डर् फस्ट् निमित्तं देन् दन्त्यन्न Now, in between those two, sometimes other varnas are allowed, sometimes they are not allowed. That's all. Which ones are allowed? Swara, ka, and pa. Ku, pu. But any others, they stop it. This is the moola, sthula rupena. Otherwise, how many sutrani are there for anatvam?
39.
Ah, so complicated the... We have been studying Natvam for about 3 months now, maybe more. Only this. There's like a 30-page, no, actually 50-page document is there, just on Natvam in Sanskrit. Very complicated. The language itself has that nature. So Panini Mahodaya has taken care of all the issues possible in the very short 39 sutras. अवगत कोऽपि प्रश्नः अस्ति वा
भगिनी इफ आई वुड जस्ट से इट अगेन इफ रेफ षकार ऋकार आर देयर इन अ वर्ड बिफोर न एनीवेयर इन द वर्ड देन न विल कन्वर्ट नो अगर इसके साथ उन दोनों के बीच में स्वर है जो अट के फॉर्मूला से मिलते हैं क वर्ग है या प वर्ग है तो न न बनेगा बाकी कुछ भी उनके बीच में तो न न ही रहेगा दंत्य न ही रहेगा
मूल स्था उत्तम
उत्तम
अस्तु अस्तु गृहपाठ रूपेण एते वाक्यानि यत् वयम् अद्य एव कृतवन्तः तदेव लिखन्तु एकवचनं द्विवचनं बहुवचनरूपेण परिवर्तनं भूत्वा कृपया प्रेषयतु मम कृते गतवर्गे तु किमपि कोऽपि गृहपाठरूपं न प्रेषितवती इति समीचीनं वा सर्वदा तु करोति रोज करना है प्रतिदिनम् एकं वाक्यं तु करणीयमेव करणीयमेव चाय रोज पीते कि नहीं एकं यू जस्ट मेक अ रूल इफ आई कैन हैव चाय then I can write a one sentence. That's all you have to do. Kripaya karo tu. Usme jo jo ho raha hai, jo jo vyakaran ke usme ho raha hai, natvam ho raha hai, dhatu kya hai, kuch kuch socho uske baare mein. Bina chintan ke ye jitna gyan hota hai na, usko khali information bolte hai. This is a very important aspect of human experience, chintan. Without contemplation, any information is only information. It will only turn to knowledge when you contemplate it. When will you contemplate if you don't think about it? Very, 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 very fundamental to human experience. We all want to be happy. That is nothing but an experience. It is, being happy is not an information. Being happy is not an object. You cannot, being happy is an experience. To get that experience, you have to do certain experiences. What is that experience? You have to contemplate. Why should you contemplate grammar to get happiness, I wonder? Because contemplating this kind of grammar creates clarity in the mind. When your mind is fully clear, then you are nothing but happy. How to become clear? These are techniques, these are practices. Studying Vyakarana is a Vedanga. It is a Vedanga. It is a Karaniyam Eva. You have to do this. You have taken human life. You have to clear your mind. It's very difficult to sit and meditate. But it's so much easier to sit and write a sentence. Yes or no? When you sit and meditate, mind goes in 50 directions and 5,000 directions. Very hard to control the mind. At least write one sentence every day. Kripaya karotu. You will find your own mental state change. Believe me. Your own human experience will change from this. You just dedicate. Agar main chai pee sakti hun roj, pani pee, khana kha sakti hun roj, so sakti hun roj, bistar se roj uth sakti hun, anything. So itna kar sakti hun. Kiske liye? Apne anubhav ke liye, for clarity in my mind. And humko lagta hai kya grammar padhne se koi clarity nahi aayegi. It is a practice, that's all. Is a practice that is away from all of the isme koi vastu nahi lagti. Most of our practices involve objects. Khana banana hai to kitchen ke bartan rahenge, bhaji rahegi, aloo rahega, chawal rahega, vastu. It involves objects. Kapde dhona hai to kapde hain, gardening karna hai to everything we do involves objects. Here is something that is new to you and it requires no object. It requires pure contemplation. It's a practice. Iti vishaye chintanam karotu eva. Paya.
Bhagini, sorry, can you just help me with the Hindi or English translation of this first line? Ramaha Ravanena saha yuddham krutavan. To Ramaha Ravan ke saath. To Ravan ke wala Ravanen se aya shabd se. Saath to saha se aya. ओके तो रावण एन इज रावण के अदरवाइज हम मे और के द्वारा समझे थे ना मतलब
मैं रावण एन इत्युक्ते काके की षष्ठी विभक्ति सॉरी हाँ हिंदी भाषायां तो रावण एन इज के द्वारा किंतु सह कारण उपपद विभक्ति कारण वो के साथ हो जाता है
अच्छा ओके भगिनी
यथा षष्ठी अस्ति तेन पापजी इति प्रश्न उक्तवान किमर्थं
रावणस्य हां
प्रश्न तो समीचीनम किमर्थं किंतु संस्कृत भाषायां इति अस्ति व्हाट टू डू एंड देयर मस्ट बी अ ब्यूटीफुल रीजन आई हैव येट टू दैट्स व्हाई आई सेड आई विल रिसर्च एंड कम टू दैट Everything I have researched, I come out with only, I only find beauty. So now I just know.
May I attempt?
हाँ वधतो.
छह कारक होते हैं ना कारक मतलब क्रिया के साथ डायरेक्ट संबंध तो ये युद्ध करना उसमें रावण का डायरेक्ट संबंध है पर जब षष्ठी लगेगी तो संबंध कारक नहीं है
षष्ठी संबंध है षष्ठी इत्युक्ते
पर वो कारक करेक्ट बट संबंध कारक नहीं बनेगा ना
किमर्थम
तो रामस्य सह तो मतलब मैं अगर आपको बोलूं कि मेरी दीदी स्कूटी चलाती है तो स्कूटी चलाने के कार्य में मेरा होना नहीं होना कुछ फर्क ही नहीं पड़ता ना उस दिशा से सोचकर जस्ट ट्राइंग टू उहाम करो मी
नो न चिंतयतु भगिनी भगिनी चिंतयतु गृहपाठ रूपेण स्पष्टतया चिंतयतु अग्रिम सप्ताहे चर्चिष्यामः वयं विषय तु समीचीनं चिंतयतु एव किन्तु सम्यक्तया एव वयं करणीयम् चिंतयतु बार बार उसको लिखो उसको समझो कैसे पर ये सब किया हुआ मैंने दैट्स व्हाई आई एम सेइंग इट टेक्स अ लॉट ऑफ क्लैरिटी इसको बार बार करना पड़ता है हम लोग की आदत क्या है जो मन में आया बोलते हैं माय आदत आल्सो उसको बदलना है कैसे बदलेंगे धीरे धीरे चिंतनम चिंतनेन उत्तमम् अन्य कोऽपि प्रश्नः अस्ति वा इति अभ्यासं समाप्य अपि गृहपाठरूपेण करोतु भगिनि समाप्तं करोतु हा वाक्यद्वयमेव तिष्ठन्तु अस्तु अस्तु कविता भगिनी अन्तिमप्रार्थना वदतु
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः शान्तिः शान्तिः
धन्यवादः सर्वेभ्यः नमो नमः नमस्कारः
भगिनी धन्यवादः भगिनी चौदस है मतलब वैशाख महीने का कृष्ण पक्ष का वो चौदहवा दिन है टुमोरो इज अमावस्या एंड सूर्य ग्रहण
अस्तु 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 उत्तमम्
And Man, if you want to stop the recording, monsoons have arrived early.